ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम् आधारम् सर्वविद्यानाम् हयग्रीवमुपास्महे। ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम् आधारम् सर्वविद्यानाम् हयग्रीवमुपास्महे। स्वतःसिद्धम् शुद्धस्फटिकमणिभूभृत्प्रतिभटम् सुधा सद्रीचीभिद्युतिभिरवदात् त्रिभुवनम् अनन्तैस्त्रय्यन्त्यैरनुविहितहेषा हलहलम् हताशेषावद्यम् हयवदनमीडी महिमहः। समाहारः साम्नाम् प्रतिपदमृषाम् धामयजुषाम् लयप्रत्यूहानाम् लहरिविततिर्बोधजलधेः कथादर्पक्षुभ्यत्कतककुलकोलाहलभवम् हरत्वन्तर्ध्वान्तम् हयवदनहेषा हलहलः। प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा वक्त्रीवेदान् भातुमेवाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः। विशुद्धविज्ञानघनस्वरूपम् विज्ञानविश्राणनबद्धदीक्षम् दयानिधिम् देहभृताम् शरण्यम् देवम् हयग्रीवमहम् प्रपद्ये। अपौरुषेरैरपि वाक्प्रपञ्चैः अध्यापिते भूतिमदिष्टपाराम् स्तुवन्नहम् मुग्ध इति त्वैव कारुण्यतो नाथ कटाक्षणीयः। दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासन धर्मपत्नी। व्यासादयोऽपि व्यपदेश्य वाचः स्फुरन्ति सर्वे तव शक्तिलेशैः। मन्दो भविष्यन्नियतम् विरिञ्चो वाचाम् निधे वञ्चित भागधेयः। दैत्यापनीतान् दयैव भूयोऽपि अध्यापयिष्यो निगमान्न चेत्त्वम्। वितर्कडोलाम् व्यवधूय सत्त्वे बृहस्पतिम् वर्तयसे यतस्त्वम्। तेनैव देवत्रितसेश्वराणाम् अस्पृष्टडोलायितमाधिराज्यम्। अग्नौ समिर्दार्चिषि सप्ततन्तोः आतस्थिवान्मन्त्रमयम् शरीरम् अखण्डसारैर्हविषाम् प्रदानैः आप्यायनम् व्योम सदाम् विधत्से। यन्मूलमीदृक् प्रतिभाति तत्त्वम् या मूलमाम्नाय महाद्रुमाणाम् तत्त्वेन जानन्ति विशुद्धसत्त्वाः तामक्षरामक्षरमातृकाम् त्वाम्। अव्याकृतात् व्याकृतवानसि त्वम् नामानि रूपाणि च यानि पूर्वम् शंसन्ति तेषाम् चरमाम् प्रतिष्ठाम् वागीश्वरत्वाम् तदुपज्ञवाचः। मुग्धेन्दुनिष्यन्द विलोभनीयाम् मूर्तिम् तवानन्दसुधा प्रसूतिम्। विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः। मनोगतम् पश्यति यः सदा त्वाम् मनीषिणाम् मानसराजहंसम्। स्वयम् पुरो भाव विवादभाजः किम् कुर्वते तस्य गिरो यथार्हम्। अपिक्षणार्धम् कलयन्ति ये त्वाम् आप्लावयन्तम् विशदैर्मयूखैः। वाचाम् प्रवाहैरनिवारितैस्ते मन्दाकिनी मन्दयितुम् क्षमन्ते। स्वामिन् भवध्यानसुधाभिषेकात् वहन्ति धन्या पुलकानुबन्धम्। अलक्षिते क्वापि निरूढमूलम् अङ्गे शिवानन्दथुमङ्कुरन्तम्। स्वामिन् प्रतीचा हृदयेन धन्याः त्वद्ध्यानचन्द्रोदयवर्धमानम्। अमान्तमानन्दपयोधिमन्तः पयोभिरक्ष्णाम् परिवाहयन्ति। स्वैरानुभावास्त्वदधीनभावाः समृद्धवीर्यास्त्वदनुग्रहेण। विपश्चितो नाथ तरन्ति माया वैहारिकी मोहन पिञ्चिकां ते प्राङ्निर्मितानां तपसां विपाकाः प्रत्यग्रनिःश्रेयस सम्पदो मे समेधि शीलं स्तव पाद पद्मे संकल्प चिंता मणय प्रणामाः विलुप्त मूर्धन्यलिपि क्रमाणां सुरेन्द्र चूडापद लालितानां त्वदङ्ग्रिराजीवरजःकणानां भूयान् प्रसादो मयिनाथ भूयात् परिस्फुरन्नोपुरचित्रभानो प्रकाशनिर्धूत तमोऽनुषङ्गाम् पदद्वयीं ते परिजन्महेन्तः प्रबोधराजीव विभात सन्ध्याम् त्वत्किङ्करालङ्करणोचितानाम् त्वयैव कल्पान्तरपालितानाम् मञ्जुप्रणादम् मणिनोपुरम् ते मञ्जूषिकाम् वेदगिराम् प्रतीमः सञ्चिन्तयामि प्रतिभादशास्थान् सन्धक्षयन्तम् समयप्रदीपान् विज्ञानकल्पद्रुमपल्लवाभम् व्याख्यानमुद्रा मधुरम् करम् ते चित्ते करोमि स्फुरिताक्षमालम् सव्येतरम् नाथकरम् त्वदीयम् ज्ञानामृतो दञ्चनलम् पटानाम् लीलाघटीयन्त्रमिवाश्रितानाम् प्रबोधसिन्धोररुणैः प्रकाशैः प्रबालसङ्घातमिवोद्वहन्तम् विभावये देव सपुस्तकम् ते वामम् करम् दक्षिणमाश्रितानाम् तमांसि भित्त्वा विशदैर्मयूखैः सम्प्रीणयन्तम् विदुषश्चकोरान् निशामये त्वाम् नवपुण्डरीके सरद्घणे चन्द्रमिव स्फुरन्तम् दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः कटाक्षाः श्रोत्रेषु पुंसाम् अमृतम् क्षरन्ति सरस्वतीम् संश्रितकामधेनुम् विशेषवित्पारिषदेषु नाथ विदग्धगोष्ठी समराङ्गणेषु जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्रसिंहासनमभ्युपेयाः त्वाम् चिन्तयन् त्वन्मयताम् प्रपन्नः त्वामुगृणन् शब्दमयेन धाम्ना स्वामिन् समाजेषु समेधिशीय स्वच्छन्दवादाहवबद्धसूरः नानाविधानामगधिः कलानाम् न चापि तीर्थेषु कृतावतारः ध्रुवम् तवानाथ परिग्रहायाः नवम् नवम् पात्रमहम् दयायाः अकम्पनीयान्यपनीतिभेदैः अलङ्कृशीरन् हृदयम् मदीयम् शङ्काकळङ्कापगमोज्ज्वलानि तत्त्वानि संयञ्चि तव प्रसादात् व्याख्यामुद्राम् करसरसिजै पुस्तकम् शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः अम्लानश्रीरमृतविशदैरंशुभिप्लावयन्माम् आविर्भूयादनगमहिमा मानसेवागधीशः वागर्थसिद्धिहेतोः पठत हयग्रीव संस्तुतिम् भक्त्या कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेता वागर्थसिद्धिहेतोः पठत हयग्रीव संस्तुतिम् भक्त्या कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम्।